एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय सभाया ह्यस्तनोपवेशेन गत विक्रमवर्षीयम् सामाजिक सञ्जाल विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्ताव सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे विधेयकमाधृत्य विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ सामाजिक सञ्जालस्य दुरूपयोगम् निरोद्धुम् विधेयकम् मानितम् अस्तीति समस्पष्टयत्। संचार मन्त्री गुरूङ सामाजिक सञ्जाल सम्बद्धान् अपराधान् विधेयक सिम्नी आनेतुम् सुशासनम् संस्थापयितुम् च सामाजिक सञ्जाल विधेयकस्य आवश्यकता स्थिति समस्पष्टयत्। राष्ट्रिय सभाया ह्यस्तनोपवेशे द्वयोः संसदीय समित्योः पृथक् पृथक् प्रतिवेदनम् प्रस्तुतम् आसीत्। उपवेशे प्रतिनिधिसभातः सन्देशम् प्राप्तम् प्राप्ते गत विक्रम वर्षीये नेपाल नागरिकता द्वितीय संशोधन विधेयक सम्बद्धम् विधायन व्यवस्थायाः प्रतिवेदनम् राष्ट्रिय निकुञ्जै सह नीतिगत समस्या सम्बद्धम् एतद् विक्रम वर्षीयम् अध्ययन प्रतिवेदनम् च प्रस्तुते स्तः। उपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहाल गत विक्रम वर्षीयम् नेपाल नागरिकता द्वितीय संशोधन विधेयक सम्बद्धम् विधायन व्यवस्थापन समितेः प्रतिवेदनम् सभा समक्षम् प्रस्तौत। एवमेव सार्वजनिक नीति प्रत्यायोजित विधायन समितेः सभापति माया प्रसाद शर्मा राष्ट्रिय निकुञ्जै सह नीतिगत समस्या सम्बद्धम् च एतद् विक्रम वर्षीयम् अध्ययन प्रतिवेदनम् प्रस्तुतवान्। राष्ट्रिय सभाया ह्यस्तनोपवेशेन सांसदः विपदः कारणेन देशस्य विभिन्नेषु स्थानेषु सम्भूताया क्षतेर्विषयम् विज्ञाप्य पूर्वकार्यस्य उद्धारस्य सहयोगस्य च कृते सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः। राष्ट्रिय सभायाः अपरोपवेशः परश्व शुक्रवासरे मध्याह्ने द्वादशवादने वस्ता। सर्वोच्च न्यायालयेन सामाजिक सञ्जालम् पञ्जीकृत्य एव सञ्चालयितुम् सर्वकारः आदिष्टोऽस्ति। तात्कालिकस्य प्रधान न्यायाधीशस्य विश्वम्भर प्रसाद श्रेष्ठस्य अन्येषाम् अष्टानाम् न्यायाधीशानाम् च वृहत्पूर्ण न्यायपीठेन 81-2000 वैक्रमाब्दस्य अस्मिन् मासस्य 13 दिवसे विहितस्य निर्णयस्य सम्प्रति सार्वजनिकृते पूर्णपाठे आदेशोऽयम् प्रदत्तोऽस्ति। सर्वोच्च न्यायालयस्य उपरजिष्ट्रार पदीयेन गोविन्द घिमिरे इत्यनेन सिदाकुरा .com इत्याख्यया संस्थया प्रकाशितेन प्रसारितेन समाचारेण श्रव्यदृश्य सामग्र्या च न्यायालयस्य अवहेलना जातेति उल्लिख्य 81-2000 वैक्रमाब्दस्य 16 दिवसे प्रतिवेदनम् प्रस्तुतम् आसीत्। तस्यैव अभियोगपत्रस्य निर्णयस्य सन्दर्भे सामाजिक सञ्जालम् पञ्जीकृत्य एव सञ्चालयितुम् निर्दिष्टम् अस्ति। सर्वकारेण नेपाले विद्यमानस्य मिथेन वायोः उत्पादनम् आगामिनः वर्षात् प्रारप्स्यते। सप्तदशम् मोटरयान प्रदर्शनम् ह्य काष्ठमण्डपे उद्घाटयन् प्रधानमन्त्री केपी शर्मा ओली मिथेन वायोः आगामिनः वर्षात् व्यावसायिकस्य उत्पादनस्य प्रारम्भणत्वेन सर्वकारेण पूर्वकार्यम् विधीयमानम् अस्तीति असूचयत्। विश्वस्मिन् विश्वे विद्यमानस्य उच्चतम प्रविधेः प्रयोगम् कृत्वा नेपालेनापि मोटरयानानाम् नूतनम् उत्पादनम् विधाय विश्वापणे तानि प्रेषयितुम् शक्यन्ते इति चर्चयन् प्रधानमन्त्री ओली एतदर्थं सर्वकारः सदैव सहयोगी रूपेण विद्यते इति अवोचत। तदवसरे प्रधानमन्त्री ओली सर्वकारेण विकासस्य सम्पूर्ण पूर्वाधाराः निर्मिताः सन्तीत्यतः अतः परं नैजक्षेत्रेणापि नूतन सम्भावनां सृष्ट्वा यूनां कृते स्वदेशे एव वृत्त्युपार्जनानि स्रष्टव्यानि इति बलं प्रादात्। प्रधानमन्त्री केपी शर्मा ओली कथयति सूचनायाः अधिकारेण सह सर्वेषाम् मौलिक अधिकाराणाम् क्रियान्वयनम् विधाय जनतायै लोकतन्त्रस्य पूर्ण प्रत्याभूतिम् दापयितुम् सर्वकारः प्रतिबद्धोऽस्ति। राष्ट्रिय सूचनायोगेन 21 राष्ट्रिय सूचना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजितम् समारोहम् सम्बोधयन् प्रधानमन्त्री ओली लोकतान्त्रिकीम् व्यवस्थाम् सुदृढाम् विधातुम् संविधाने मौलिकाधिकाराणाम् व्यवस्था विहितास्ति इत्यतः तेषाम् क्रियान्वयनम् कर्तव्यमित्यत्र सर्वकारः स्पष्टोऽस्तीति अवोचत। समारोह प्रधानमन्त्री ओली सूचनाया अधिकार सर्वेषाम नागरिकाणाम प्राजातान्त्रिक अधिकारोऽस्ति इति प्रत्यपादयत। तदवसरे प्रधानमन्त्रिणा ओलिना एतद् विक्रमवर्षीयेण विनय कसजु सर्वोत्कृष्ट सूचनाया अधिकाराभियन्त्री पुरस्कारेण वरिष्ठ पत्रकार शिवगाउँले सम्मानित आसेत। तथैव कार्यक्रमे प्रधानमन्त्री ओली विनय काजु उत्कृष्ट सूचना अधिकाराभियन्त्री पुरस्कारेण आरती चटौत पूर्णप्रसाद मिश्र कृष्णा पौडेल अमृतनाथ तिमलसिना चेतेतान जनान सममानयत। हिन्दुकुश हिमालय संसदीय सम्मेलनम् पञ्चसूत्रात्मकम् घोषणापत्रम् पारितीकृत्य काष्ठमण्डपे सम्पन्नमस्ति। हिमालय क्षेत्रस्य विभिन्न देशानाम् प्रमुखाणाम् प्रतिनिधीनाम् च सहभागितायाम् सम्भूतस्य संसदीय सम्मेलनस्य समापन समारोहम् सम्बोधयन् पूर्वेद्युः सभामुख देवराज घिमिरे हिन्दुकुश हिमालय क्षेत्रेषु दृष्टान् प्रभावान् रोद्धुम् सांसदैः नीति निर्माणस्य माध्यमेन जलवायोः अनुकूलनाय महत्वपूर्णा भूमिका निर्वीडुम् शक्यते इति अगदत। सम्मेलनस्य उच्चस्तरीय विमर्शने सम्बद्धै पक्षै वायु प्रदूषणस्य न्यूनीकरणस्य क्षेत्रीय सहकार्यस्य संयुक्त वैज्ञानिकाधारस्य वायु गुणस्तर सूचकांकानाम् अनुगमनस्य च कृते नीतिगत समन्वयस्य आवश्यकता अस्ति इति उक्तम् आसीत्। हिमालय क्षेत्रस्य विभिन्न देशानाम् प्रमुखाणाम् प्रतिनिधीनाम् च सहभागितायाम् सम्भूते कार्यक्रमे सहभागी प्रतिनिधयः जलवायु परिवर्तनस्य विरूद्धम् तत्कालमेव कार्यक्रमाणाम् सञ्चालनम् आवश्यकम् अस्ति इति बलम् दत्तवन्तः। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ वर्तमान आर्थिक वर्षे कार्य सम्पादन संविधायाः 100% कार्याणि सम्पादयितुम् निर्देशनात्मकम् परामर्शनम् ददाति। मन्त्रालये ह्य सचिवेन राधिका अरियाल इत्यनया मन्त्रालयस्य सम्बद्ध विभाग निकायानाम् प्रमुखैश्च सह वर्तमानार्थिक कार्य सम्पादन संविधायाः प्रस्तुतेः कार्यक्रमे मन्त्री गुरूङ उपस्थितान् सर्वान् उच्चाधिकारिणः एवं ध्यानाकर्षणम् व्यददात्। नेकपा माओवादी केन्द्रेण सर्वकारस्य सर्वासु संरचनासु हस्तक्षेपस्य प्रक्रिया अग्रे वर्धितास्ति इति निष्कर्षः प्रकाशितोऽस्ति। पेरिस डाँडावर्तिनी दल केन्द्रीय कार्यालये ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन सर्वकारस्य पश्चात्तन क्रियाकलापेन जनतायाम् नैराश्यम् आक्रोशश्च वर्धमानेस्त वर्तमान व्यवस्थायामेव प्रभाव सृष्टोऽस्ति चेति च विषययोः विमृष्टमस्ति इति माओवादी केन्द्रस्य उपाध्यक्ष प्रवक्ता अग्निप्रसाद सापकोटाः असूचयत। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः राजनीतिक परिस्थितिर्विषये ज्ञापयन् सर्वकारः देशस्य जनतायाश्च हितविपरीततया क्रमशः अनुचित कार्याणि कृत्वा अग्रे वर्धमानोऽस्तीति विषयम् उपस्थापयतीति प्रवक्ता सापकोटा असूचयत्। विश्व स्वास्थ्य संगठनेन नेपाले रूबेला रोगस्य पूर्णतया उन्मूलनम् सम्भूतमस्तीति उद्घुष्टम् वर्तते। कतिचित् कालात् नेपालेन विहितस्य प्रगतेः मानकम् आधृत्य विश्व स्वास्थ्य संगठनेन नेपाले रूबेला रोगस्य उन्मूलनम् विहितमस्ति इति घोषणा विहितास्ति। सर्वकारेण द्वादशोत्तर द्विसहस्रतम ख्रीष्ट वर्षे नवभ्यो मासेभ्य आरभ्य पञ्चदश वर्ष पर्यन्तिकानाम् बालबालिकानाम् लक्षीकरणम् कृत्वा रूबेला टीकोषधा दान कार्यक्रमः संचालितः आसीत् इति समाचारः।